अथ भवानी भुजंग प्रयात स्तोत्रम् षडाधार पंकेरुहांतर्विराज सुषुम्नांतरालेति तेजोलसंतिम् सुधामण्डलम् द्रावयन्तीम् पिबन्तीम् सुधामूर्तिमीडेहमानन्दरूपाम् ज्वलत्कोटिबालार्कभाषारुणाङ्गीम् शूलावन्यशृङ्गारशोभाविरामाम् महापद्मकिञ्जल्कमध्ये विराज त्रिकोणोलसन्तीम् भजे श्रीभवानीम् कणत्किङ्किणीनूपुरोद्भासि रत्नप्रभालीढघादाक्षपादारविन्दाम् अजेशाच्युदाद्यसुरेर्सेव्यमानं महादेवी मन्मूर्धिते भावयामि शुषोणाम्बराबद्धनीविराजन्महारत्नकाञ्चीकपालकलापं नितम्बं शुरद्दक्षिणावर्तनाभिं च तिस्रो बलिरम्यते रोमराजिं भजेऽहम् लषद्वृत्तमुत्तुङ्गमाणिक्यकुम्भोपमश्रीस्तनद्वद्वमम्बाम्बुजाक्षिं भजे पूर्णदुग्धाभिरामं तवेदं महाहारदीप्तं सदा प्रस्तुतास्यं शिरीशप्रसूनो लषद्बाहुदण्डैर्ज्वलब्धबाणकोदण्डपाशाङ्कुशैश्च चलत्कङ्कणोदारकेयोरभूषाज्वलद्भिस्फुरन्तीं भजे श्रीभवानीं शरत्पूर्णचन्द्रप्रभापूर्णबिम्बाधरश्मेर्वक्त्रारविन्दश्रियं ते सुरत्नावलीहारताटङ्कशोभां भजे सुप्रसन्नामहं श्रीभवानीं सुनाशाकुटं पद्मपत्रायताक्षं यजन्तः श्रियं दानदक्षं कटाक्षम् ललाटोलषद्गन्धकस्तूरिभूषोज्ज्वलद्भिस्फुरन्तीं भजे श्रीभवानीं चलत्कुण्डलं तीभ्रमद्भृङ्गवृन्दां घनस्निग्धदम्भीलभूषोज्ज्वलन्तीं स्फुरं मौलिमाणिक्यमध्येन्दुरेखाविलासोत्लसद्दिव्यमूर्धानमीढे स्फुरत्वम्बबिम्बस्य मे हृत्सरोजे सदा वाङ्मयं सर्वतेजोमयं च इति श्रीभवानीस्वरूपं तदेवं प्रपञ्चात्परं चातिसूक्ष्मं प्रसन्नं गणेशाणि माद्याखिली शक्तिवृन्दैश्वरच्छिद्महाचक्रराजोलसन्तीं परं राजराजेश्वरीं त्वां भवानीं शिवाङ्कोपरिस्थां शिवां भावयेऽहं त्वमर्कस्त्वमग्निस्त्वमिन्दुस्त्वमापस्त्वमाकाशभुवा यशस्व त्वं चिदात्मा त्वदन्यो न कश्चित् प्रकाशोऽस्ति सर्वं सदानन्दसंवित्स्वरूपं तदेव गुरुत्वं शिवस्त्वं च शक्तिस्त्वमेव त्वमेवासि माता पितासि त्वमेव त्वमेवासि विद्यात्ममेवासि बुद्धिर्गतिर्मे मतिर्देवि सर्वत्वमेव श्रुतितामगम्यं सुवेदागमाद्यर्महिम्नो न जानाति पारं तदेव स्तुतिं कर्तुमिच्छामि ते त्वं भवानि क्षमस्वेदवम्ब प्रमुग्ध किलाहं शरण्ये वरेण्येषु कारुण्यपूर्णे हिरण्योदराद्दिर्गम्येति पुण्ये भवारण्यभीतं च मां पाहि भद्रे नमस्ते 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 भवानि इमामन्वहं श्रीभवानि भुजङ्गस्तुतिं व्यप्रचे पठेत् श्रोतुमिच्छेत तस्मै स्वकीयं पठं शाश्वतं चैव सारं श्रियं चाष्ट सिद्धिश्च देवी ददाति इति श्रीमत्शङ्कराचार्य विरचिता भवानी भुजङ्गस्तुति सम्पूर्णम्।